ग्रेश्लोकः अस्ति, त्वया सह प्रस्थितचित्तवृत्तिः,
त्वया सह प्रस्थितचित्तवृत्तिः,
विभावरीकोकसमानधर्मा,
विभावरीकोकसमानधर्मा,
वचोब्रवीन्मैथिलिमन्मुखेन,
वचोब्रवीन्मैथिलिमन्मुखेन,
त्वां कौशलं कोसलराजपुत्रः,
त्वां कौशलं कोसलराजपुत्रः।
अत्र वदति कुशलं श्रावितवान् श्रीरामः, त्वां कुशलवचनम् उक्तवान् इति आञ्जनेयः आरम्भं करोति। पदच्छेदः त्वया सह प्रस्थितचित्तवृत्तिः, विभावरीकोकसमानधर्मा, वचः अब्रवीत् मैथिलि मन्मुखेन, त्वां कौशलं कोसलराजः। आकांक्षा हे मैथिलि, अब्रवीत् इति क्रियापदम् अवदत्। कः अब्रवीत्? कोसलराजपुत्रः। कीदृशः कोसलराजपुत्रः? प्रस्थितचित्तवृत्तिः। यदा सीता रावणेन अपहृता, यदा वियोगः सञ्जातः, तस्मात् क्षणादेव श्रीरामस्य शरीरमेव अन्यत्र अस्ति, मनः तु त्वया सह एव अस्ति हे देवी सीते इति। अतः प्रस्थितचित्तवृत्तिः इति वदति। प्रस्थितहृदयः, यस्य हृदयं प्रस्थितमस्ति सीतया सह। कया सह प्रस्थितचित्तवृत्तिः? त्वया सह। पुनः कीदृशः कोसलराजपुत्रः? विभावरी कोकसमानधर्मा। विभावरी इत्युक्ते रात्रिः, रात्रिसमये चातकपक्षी। मिथुनात् वियुक्तः पक्षी पक्षिणी उभौ अपि वियुक्ते भवतः, वियुक्तौ भवतः चेत्, तयोः मेलनं न भवति चेत्, तौ कथं वियोगम् अनुभवतः? दुःखं कारुण्यं भवति किल, तादृशं तादृशी स्थितिः अस्ति श्रीरामस्य। वियुक्तचातपक्षीवत् अस्ति तस्य स्थितिः। अतः विभावरी कोकसमानधर्मा। कोसलराजपुत्रः किम् अब्रवीत्? वचः, वचनं। कीदृशं वचः? कौशलं वचः। वचः इति नपुंसकलिङ्गं, कौशलं वचः। केन? मन्मुखेन, मद्वारा। कां कौशलं वचः अब्रवीत्? त्वाम् अब्रवीत्। अन्वयः भवति हे मैथिलि, त्वया सह प्रस्थितचित्तवृत्तिः, विभावरी कोकसमानधर्मा, कोसलराजपुत्रः मन्मुखेन, त्वां कौशलं वचः अब्रवीत्। प्रतिपदार्थं पश्यामः। हे सीते, हे मैथिलि, त्वया सह प्रस्थितचित्तवृत्तिः, श्रीरामस्य शरीरमेव तत्र किष्किन्धायां, मनः त्वया सह पूर्वमेव प्रस्थितमस्ति, तादृश प्रस्थितचित्तवृत्तिः। विभावरी कोकसमानधर्मा, यस्य मनोधर्मः, यस्य विचारः, यस्य स्थितिः इदानीं कथमस्ति? यथा रात्रिसमये चातकीतः वियुक्तः चातकपक्षी भवति किल, कोकः इत्युक्ते चातकपक्षी, चातकीतः वियुक्तः चातकः इव तस्य स्थितिः, रामस्य स्थितिः अपि। यद्धर्मशब्दः यदा बहुव्रीहिसमासे भवति तदा आत्मन् शब्दवत्, आत्मा आत्मानौ आत्मानः तथा भवति। अतः विभावरी कोकसमानधर्मन् शब्दः अत्र, अतः एवं दीर्घं विभावरी कोकसमानधर्मा। कोसलराजपुत्रः, दशरथपुत्रः, मन्मुखेन, मद्द्वारा, अहं निमित्तम्, अहं करणमस्मि, मद्द्वारा, त्वां त्वत्सकाशे कौशलं वचः, कुशलं कुशलवचनं पृष्टवान् अस्ति, अब्रवीत्, उक्तवान्। రాత్రౌ విభావరీకోక సమాన ధర్మ. విభావరీ ఇత్యుక్తే రాత్రి. విభావర్యాం కోకపక్షి వియుక్తః భవతి చేత్ విరహ క్రందనం కరోతి. కావ్యేషు ఏతద్ బహు ప్రసిద్ధం. అతః ఏవ కోకపక్షిణః అత్ర ఉక్తిః అస్తి. విభావరీకోక సమాన ధర్మ శ్రీరామః ఇతి. పునః ఆంజనేయ వదతి, కేవలం శ్రీరామ కుశలం ఉక్తవాన్ అస్తి, లక్ష్మణ అపి స్వ నమస్కారాన్ ఉక్తవాన్ అస్తి, సుగ్రీవ అపి కుశల వార్తాం ప్రేషితవాన్ అస్తి ఇతి అగ్రిమ శ్లోకే వదతి. అపి చ శిరసా తవ సౌమిత్రిః. సరళ శ్లోక. అత్ర క్రియాపదద్వయం అస్తి, అపృచ్ఛత్ అనంతరం అకరోత్ ఇతి. పదచ్ఛేదం కృత్వా ఆకాంక్షాం పశ్యామః. అపి చ శిరసా తవ సౌమిత్రిః అకరోత్ అభివాదనం, అపృచ్ఛత్ సః అపి భద్రం త్వాం అధిపః చ వనౌకసాం. ప్రథమ క్రియాపదం అస్తి అకరోత్. కః అకరోత్? సౌమిత్రిః, సుమిత్రాసుతః. తద్ధిత ప్రత్యయః సుమిత్రాయాః అపత్యం పుమాన్. సౌమిత్రిః, సౌమిత్రిః కిం అకరోత్? అభివాదనం. కథం శిరసా అభివాదనం? కస్యాః అభివాదనం? తవ అభివాదనం. పునః అపృచ్ఛత్. కః అపృచ్ఛత్? సః. కీదృశః సః? అధిపః, రాజా. కేషాం అధిపః? వనౌకసాం. వనం ఓకః ఏషాం తే. వనౌకసః ఇది పదం. ఓకః ఇత్యుక్తే గృహం. వనమేవ కేషాం గృహం? భల్లూకాః, వానరాః ఇత్యేతే కిల వానరాః. వానరాణాం అధిపః, అతః వనౌకసాం అధిపః. వనమేవ ఏషాం గృహమస్తి తాదృశానాం అధిపః. సః కిం అపృచ్ఛత్? భద్రం అపృచ్ఛత్, కుశలం అపృచ్ఛత్. కాం? త్వాం ప్రతి భద్రం అపృచ్ఛత్. అన్వయః భవతి, సౌమిత్రిః తవ అభివాదనం శిరసా అకరోత్, అపి చ సః వనౌకసాం అధిపః త్వాం భద్రం అపృచ్ఛత్. ప్రతిపదార్థః సౌమిత్రిః లక్ష్మణః తవ అభివాదనం, తవ త్వాం ప్రతి నమస్కారం శిరసా అకరోత్. శిరః అవనమయ్య అంజలిం బద్ధ్వా అకరోత్. అపి చ సః వనౌకసాం అధిపః సుగ్రీవః, వానరాణాం రాజా వానరేంద్రః, త్వాం కుశలం భద్రం అపృచ్ఛత్. యథా దివౌకసః ఇతి పదమస్తి కిల, దివం ఓకః ఏషాం తే దివౌకసాః, తథా వనం ఓకః, ఓకః నామ గృహం. ఏషాం తే ఏకవచనం చేత్ వనౌకాః, బహువచనం వనౌకసః. భద్రం ఇతి భద్రం, మంగళం, శుభం, ఏతాని సమానార్థక పదాని భవంతి. ఇతోపి ఏక గద్యభాగః అస్తి, తద్ పశ్యామ. ఏవం అభిహితయా తయా,
ఏవం అభిహితయా తయా,
భూత విశ్రంభతయా,
సంభూత విశ్రంభతయా,
భయాత్ అపేతయా,
భయాద్ అపేతయా,
తావత్ అనుయుక్తః పవనతనయః,
తావత్ అనుయుక్తః పవనతనయః,
వాలిమరణ కారణం సుగ్రీవస్య సఖ్యం ఆఖ్యాయ,
बालीमरणकारणं सुग्रीवस्य सख्यम् आख्याय प्राचेतसचेतः इव
संतत सन्निहित रामनाममंगलम्
संतत सन्निहित रामनाममंगलम्
अंगुलीयकम् अस्यै प्रायच्छत् अंगुलीयकम् दत्तवान् आञ्जनेयः सीतादेव्यै दत्तवान् किं कृत्वा यदा विश्वासः उत्पन्नः सीतायां तदा एवम् अभिहितया तया एवम् उक्ता सा सीता उक्ता किमिति उक्ता पूर्वं राम कीर्तनमधूनी श्रावितवान् अनन्तरं स्वस्य परिचयं दत्तवान् अहं रामदूतः अन्यथा मास्मम् अन्यथा माम् अन्यथा मा चिन्तय इति उक्त्वा एवम् अभिहिता सा तया सम्भूतविस्रम्भतया यदा सा विश्वासं प्राप्तवती पुनः तस्याः भयमपि अपगतं तदा त्वं कः किमर्थमत्र आगतः इति सर्वं पृष्टः सः अनुयुक्तः पवनतनयः वालीमरणकारणं सुग्रीवस्य सख्यमाख्याय वालिनः मरणं सम्पादयितुं तद् कारयितुम् एव सुग्रीवः राज्य पुनः प्राप्त्यर्थमेव किल रामस्य सख्यं प्राप्तवान् तदा अहमपि सीतान्वेषणे भवतः साहाय्यं करोमि इति द्वयोः सख्यं जातम् तादृशं सर्वम् उक्त्वा तद् तां घटनां सर्वम् उक्त्वा प्राचेतसचेतः इव यथा यथा श्रीवाल्मीकी वाल्मीकेः मनसि सर्वदा श्रीरामनाम भवति सर्वदा भवति तथैव रामनाम अङ्कित अङ्गुलीयकमस्ति तच्च अङ्गुलीयकं सीतादेव्यै दत्तवान् श्री आञ्जनेयः एकैकमपि पदं पश्यामः एवम् अभिहितया तया अभिहितम् इत्युक्ते उक्तम् अत्र कर्मणि प्रयोगः उदाहरणार्थम् अहम् एकं वाक्यं वदामि अहं भगिनी एतद् वाक्यम् उक्तवती तर्हि कर्मणि मध्ये कथं भवति भगिनी उक्ता मया भगिनी उक्ता किल तथा सीता अभिहिता सीतादेवी उक्ता आसीत् आञ्जनेयेन आञ्जनेयः अत्र कर्ता आञ्जनेयः सीताम् उक्तवान् तस्य कर्मणि भवति आञ्जनेयेन सीतादेवी अभिहिता उक्ता एवम् अभिहितया तया एवम् उक्तया तया सम्भूतविस्रम्भतया अतः एव सा इदानीं विश्वासं प्राप्तवती एषः कः किमर्थमत्र आगतः इति विश्वासं प्राप्तवती विस्रम्भः इत्युक्ते विश्वासः प्रत्यायिता अभवत् सा इदानीं विश्वासं प्राप्तवती सम्भूतः विस्रम्भ यया सम्भूतविस्रम्भतया भय अतः एव तस्याः भयमपि इदानीम् अपगतम् भयात् अपेतया विगतभया अभवत् सा इदानीं भयात् अपेता तादृशी तया तावत् अत्र तावत् इति अव्ययं पदं प्रथमम् इति अर्थः बहुत्र वयं विशिष्य साहित्यकाव्येषु पश्यामः प्रथमं तावत् इति वदन्ति अथवा तावत् इतो अहं प्रस्थितः इति वदन्ति तत्र तावत् इति अस्मिन् सन्दर्भे प्रथमम् आदौ इति अर्थः अनुयुक्तः पवनतनयः अनुयुक्तः इत्युक्ते पृष्टः भवान् कः किमर्थमत्र आगतवान् भवतः परिचयः विस्तरेण ददातु इति अनुयुक्तः पृष्टः पवनतनयः मारुतिः वालिमरणकारणं सुग्रीवस्य सख्यम् आख्याय आख्याय इत्युक्ते उक्त्वा आख्याति वदति आख्याय उक्त्वा किम् उक्त्वा वालिमरणकारणं सुग्रीवस्य सख्यं सख्यम् उक्त्वा किमर्थम् एतद् वदति इत्युक्ते सुग्रीवेण एव श्रीरामः अस्मिन् कार्ये नियोजितः. सुग्रीवः एव राजा तत्र. अनन्तरं सुग्रीवेण अस्मिन् कार्ये नियोजितः, निश्चयेन श्रीरामस्य दूतः भूत्वा एव आगतवान्, सुग्रीवेण नियोजितः. अतः वालिमरणकारणं सुग्रीवस्य सख्यम्. सुग्रीवस्य सख्यं सख्ये हेतुभूतं किं? वालिमरणकारणं. तयोः सख्यम् एतेन कारणेन एव जातम्. वालिमरणहेतुभूता सुग्रीवमैत्री, तादृशी मैत्री मुक्त्वा कथयित्वा अङ्गुलीयकम् अयच्छत्. अङ्गुलीयकं दत्तवान्. तच्च अङ्गुलीयकं कीदृशमस्ति इत्युक्ते, प्राचेतसचेतः इव सन्ततसन्निहितरामनाममङ्गलम्. अङ्गुलीयकस्य विशेषणम् अङ्गुलीयकम्. अङ्गुलीयके श्रीरामस्य नाम खचितमस्ति, चिह्नितमस्ति. कथं? यथा श्रीवाल्मीकेः हृदये सर्वदा श्रीरामनाम अङ्कितं भवति तथा. अतः एव वदति प्राचेतस चेतः इव. प्राचेताः श्रीवाल्मीकिः, प्राचेतस चेतः वाल्मीकेः हृदये इव. सन्ततसन्निहितराममङ्गलं, सन्ततं सर्वदा, सन्निहितं सर्वदा वर्तमानं, समीपे स्थितं. सन्निहितम् इत्युक्ते वयमपि देवस्य नाम कदाचित् स्मरामः, किन्तु सर्वदा स्मरामः वा इति पृष्टे सति अस्माभिः चिन्तनीयमेव. यदा आपद् भवति, सन्तोषः भवति, दुःखं भवति, सर्वेषु कालेषु सर्वेषु भावेषु उत्पन्नेषु सत्सु अपि किं झटिति श्रीनाम भगवन्नाम स्मरामः वा इति प्रश्नः भवति किल. सन्निहितं नास्ति, अवेलेबल् अट् आल् टैम्स् इति नास्ति. कदाचित् स्मरामः, कदाचित् विलम्बेन स्मरामः, कदाचित् बहु अतिविलम्बेन स्मरामः इति भवति. किन्तु श्रीवाल्मीकेः विषये तथा न. सन्निहितं सर्वदा उपलब्धं तत् रामनाम. अमङ्गलं तद् कल्याणं. रामनाम शुभं नाम. यथा श्रीवाल्मीकेः हृदये सर्वदा तद् विलसति, रीङ्कारं करोति, तादृशम् अत्र अङ्गुलीयके श्रीरामनाम चिह्नितमस्ति. तादृशम् अङ्गुलीयकम् अस्यै देव्यै सः दत्तवान्, प्रायच्छत्. श्रीमद्वाल्मीकिरामायणस्य आरम्भे एव मङ्गलश्लोके पूजन्तं रामरामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलं. वाल्मीकिकोकिलः राम नाम इति शाखायाम् उपविश्य किं करोति? सर्वदा राम 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 इति वदति, कूजति. कूजन्तं राम राम इति मधुरं मधुराक्षरं, मधुराणि अक्षराणि कूजति. कुत्र? आरुह्य कविताशाखा. वेदस्य बह्व्यः शाखाः सन्ति. वेदा षडङ्गानि सन्ति, अनन्तरं उपवेदाः सन्ति, उपनिषदः सन्ति, अनन्तरं स्मृतिग्रन्थाः सन्ति. कविता इति अपरा शाखा. व्याकरणम् इति भवति, न्यायशास्त्रं, मीमांसाशास्त्रम् इति बहुविधशास्त्राणि सन्ति किल. तत्र कविता इति शाखाम् आरुह्य वाल्मीकी किं करोति? राम 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 इति कूजति. तादृशश्रीवाल्मीकिः अत्रापि तथैव उक्तं. सन्ततं सन्निहितं रामनाममङ्गलम् अङ्गुलीयकम् अस्यै सीतादेव्यै सः प्रायच्छत्, दत्तवान्. तद् अङ्गुलीयकं, तच्च अङ्गुलीयकं प्राप्य सीतादेवी सन्तुष्टा, प्रत्यायिता, विश्वस्ता अस्ति. हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा. अथोवाच हनुमान्स्ताम् उत्तरं प्रियदर्शनाम्. वाल्मीकिरामायणे श्लोकः हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा. यथा मास् अन्यथा मास्मम् अन्यथा इति प्रयोगः अत्र कृतः कविना. साक्षात् वाल्मीकिरामायणमेव अनुसरति भोज, श्रीभोजः अपि, भोजराजः अपि. कुत्रापि तादृशप्रयोगः कृतः पश्यतु. हनुमन्तं कपिं व्यक्तं मन्यते ना अन्यत न अन्यथा. आम् भवान् श्रीरामदूतः इति एव तस्याः विश्वासः उत्पन्नः, अन्यथा न चिन्तयति सा. अथ उवाच, यदा विश्वस्ता सा तदा उक्तवती. हनुमान् ताम् उत्तरं प्रियदर्शनाम्, यदा तस्याः अपि विश्वासः उत्पन्नः तदा हनुमान् ताम् उक्तवान्. किम् उक्तवान्? वानरोऽहं महाभागे दूतो रामस्य धीमतः, रामनामाङ्कितं च इदं पश्य देव्याङ्गुलीयकम्. पश्य देवी, हे देवी, अङ्गुलीयकं पश्य. गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम्. तत् भर्तुः करं विभूषयति किल, तत् करविभूषितम् अङ्गुलीयकं गृहीत्वा तत् अङ्गुलीयकम् ईक्षमाणा सा भर्तारम् इव सम्प्राप्तं जानकी मुदिता अभवत्. साक्षात् भर्तारं प्राप्तवती इव सा परम आनन्दिता अभवत् इति एतेन मङ्गलवचनेन अद्य वयं विरमामः. पुनश्च अग्रिमसप्ताहे मेलिष्यामः. सर्वे अपि वाल्मीकिरामायणस्थ सुन्दरकाण्ड सर्गाणां पारायणं किञ्चित् अध्ययन दृष्ट्या अपि पठन्तु इति प्रार्थयामि. नमस्ते. शान्तिमन्त्रं वदामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाक् भवेत्. शान्तिः शान्तिः शान्तिः.